एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण चक्रवृद्धि धन पीडितानाम् जनानाम् समस्यानाम् समाधानाय विगत समये संगठितानाम् आयोगानाम् समितीनाम् च प्रतिवेदनानि तत्कालमेव क्रियान्वेतुम् निर्णीतम् वर्तते। मन्त्रिपरिषद ह्य उपविष्टेन उपवेशेन चक्रवृद्धि धनस्य अनुचितादान प्रदानेन पीडितानाम् जनानाम् समस्यानाम् समाधानाय संघटितानाम् आयोगानाम् प्रतिवेदनानि तत्कालमेव क्रियान्वेतुम् गृहमन्त्रालयाय दायित्वम् निर्धारयितुम् च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री च सस्मित पोखरेलः असूचयत्। उपवेशेन विपद प्रतिकारीयेषु संलग्नेभ्य सशस्त्र प्रहरीभ्य प्रोत्साहन सौविध्यम् प्रदातुम् निर्णीतम् वर्तते। मन्त्रिपरिषद उपवेशेन अन्तर्राष्ट्रिय प्रतियोगितासु नेपालस्य पक्षत सहभागिताम् प्रदर्श्य पदकम् लब्धवद्भ्य क्रीडकेभ्य प्रशिक्षकेभ्य सहायक प्रशिक्षकेभ्य शारीरिक प्रशिक्षकेभ्य व्यवस्थापकेभ्यश्च वित्तरूपम् पुरस्कारम् सम्मानम् च प्रदातुम् नेपाल वायुसेवा निगमस्य संचालक समितेः कार्यकारी अध्यक्षपदे महाप्रबन्धकस्यापि दायित्वस्य निर्वहणत्वेन महेश्वर भक्त श्रेष्ठाय दायित्वम् धारयितुम् एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयाम् विजय सम्बद्धाम् प्रथम संशोधन नियमावलीम् स्वीकर्तुम् च निर्णीतम् अस्तीति मन्त्री पोखरेलः अज्ञापयत्। गृहमन्त्रिणः सुदन गुरूङ इत्यस्य चक्रवृद्धि धन पीडितानाम् च जनानाम् मध्ये ह्यो बारा जनपदस्य निजगढस्थाने प्रथम चरणस्य वार्ता सम्पन्नास्ति। सर्वकारस्य पक्षतः वार्तायै तत्र प्राप्तो गृहमन्त्री गुरूङ पीडितैः जनैः उपस्थापितानाम् षट्सूत्रीय याचनानाम् विषये प्रथम चरणस्य वार्ताम् विहितवान् वर्तते। प्रथम चरणस्य वार्तायाम् सहमतेः अधरणस्य पश्चात् सर्वकारस्य आन्दोलनरत पक्षस्य च मध्ये द्वितीय चरणस्य वार्तायै पूर्वकार्ये पक्षद्वयमेव संलग्नम् अस्तीति उक्तम् वर्तते। विरोधम् विज्ञाप्य जनकपुरात् काष्ठमण्डपम् प्रति आगच्छद्भि चक्रवृद्धि धनेन पीडितै जनैः स वार्तायै ह्य प्रात गृहमन्त्री गुरूङ बारा जनपदस्य निजगढस्थानम् प्राप्तः आसीत्। प्रतिनिधिसभाया ह्यस्तनोपवेशे अर्थमन्त्रिणा डाक्टर स्वर्णिम वाग्ले विधेन अर्थसम्बन्धिनः कांश्चन नेपालाधिनियमान् संशोधयितुम् निरसयितुम् च निर्मितम् एतत् विक्रमवर्षीयम् विधेयकम् प्रस्तुतम् वर्तते। उपवेशे प्रधानमन्त्रिणा बालेन्द्र शाहस्य पक्षत विधि न्याय संसदीय विषय मन्त्रिणा सुविता गौतमेन प्रस्तुतस्य द्वाचत्वारिंशदुत्तर द्विसहस्रतम विक्रम वर्षीयस्य नेपाल विशेष सेवाधिनियमस्य तात्कालिकीम् व्यवस्थाम् उज्जीवयितुम् निर्मितम् विधेयकम् एतद् विक्रमवर्षीयम् राष्ट्रिय सेवादल सम्बद्धम् विधेयकम् च सभया प्रकरणगत विमर्शनाय सम्बद्ध समितिषु प्रेषिते स्तः। एवमेव प्रधानमन्त्रिणा शास्य पक्षत विधिमन्त्रिणा गौतमेन न्याय परिषद गत विक्रमवर्षीयम् प्रतिवेदनम् न्याय सेवायोगस्य गत विक्रमवर्षीयम् वार्षिकम् प्रतिवेदनम् लोकसेवायोगस्य षट्षष्टितमम् वार्षिकम् प्रतिवेदनम् च सभायाम् प्रस्तुतानि वर्तन्ते। प्रतिनिधिसभायाम् पूर्वेद्यो सांसदै विपद सम्भावित संकटस्य नियन्त्रणे ध्यानम् प्रदातुम् जनतायाः जीवन रक्षणम् कर्तुम् च सर्वकारस्य ध्यानम् आकर्षितम् वर्तते। उपवेशे सांसदाः विरलवृष्टेः कारणेन कालीकोट जाजरकोट कैलाली जनपदैः सह आराष्ट्रम् प्रभावितानाम् जनानाम् सहयोगस्य व्यवस्थायै अभियाचितवन्तः सन्ति। तदनु उपवेशे सभामुखेन डोल प्रसाद अरियालेन विपज्जन घटनानाम् कारणेन सम्भाविताया क्षतेः न्यूनीकरणाय प्रभावकारी विपद पूर्व कार्याणाम् व्यवस्थायै च सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। उपवेशे सांसदै गणेश नेपालिनः आत्महत्यायाः घटनायाः संचार गृह नेत्रगृहादीनाम् समक्षम् न्यूरडादि स्थानेषु च यानानाम् स्थापनस्य भूम्यावासहीनानाम् जनानाम् सुष्ठु व्यवस्थापनस्य आपणे महर्घस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। ह्यस्तनोपवेशे भौतिक पूर्वाधार मन्त्री सुनिल लम्साल देशे विद्यमानार्थिकावस्थायाः सामाजिक नैराश्यस्य च नीतिगत सुधारस्य माध्यमेन सम्बोधनाय सर्वकारः प्रतिबद्धोऽस्तीति उक्तवान् वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन आयव्ययक सम्बद्धानि त्रीणि विधेयकानि प्रमाणीकृतानि वर्तन्ते। राष्ट्रपतिना पौडेलेन आगामिनः आर्थिक वर्षस्य आयव्ययकेन सम्बद्धानि संघीय संसदा पारितीकृतानि त्रीणि विधेयकानि प्रमाणीकृतानि सन्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य त्रयोदशोत्तरैकशततम धाराया द्वितीयोपधारायाश्चानुसारेण एतद् विक्रमवर्षीयं विनियोजन विधेयकम्, एतद् विक्रमवर्षीयं राष्ट्र ऋणोत्थापन विधेयकम्, एतद् विक्रमवर्षीयम् आर्थिक विधेयकम् च प्रमाणीकृतानि सन्तीति राष्ट्रपति कार्यालयेन ज्ञापितम् वर्तते। उपराष्ट्रपति रामसहाय प्रसाद यादव ह्य कतारदेशम् सम्प्राप्तोऽस्ति। उपराष्ट्रपति यादव कतारदेशस्य पूर्वराज्ञः शेख अहमद बिन खलीफा अल थानी इत्यस्य निधनम् प्रति नेपाल सर्वकारस्य पक्षतः शोक समवेदनाम् प्रकटयितुम् कतारदेशस्य त्रिदिवसात्मक भ्रमणस्य क्रमे कतारदेशम् सम्प्राप्तो वर्तते। उपराष्ट्रपति यादव अद्य कतारदेशस्य राज्ञे शेख तमीम बिन हमद अल थानी इत्यस्मै राष्ट्रपतिना रामचन्द्र पौडेलेन प्रेषितस्य शोक सन्देशस्य हस्तान्तरणम् करिष्यतीति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। उपराष्ट्रपति यादव स्वस्वदेशम् प्रत्यागन्ता। विभिन्नानाम् विश्वविद्यालयानाम् नवनियुक्तैः उपकुलपतिभिः प्राज्ञिक क्षेत्रम् दलगत राजनीतितः मुक्तम् विधातुम् सुशासनम् स्थापयितुम् च प्रतिबद्धता व्यक्तास्ति। प्रधानमन्त्रिणा बालेन्द्र शाहस्य उपस्थितौ ह्यः सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये नेपालस्य उच्चशिक्षाक्षेत्रस्य वर्तमानावस्थायाः समाह्वयानाम् सुधारस्य च विषयेषु सम्भूते विमर्शने उपकुलपतिभिः प्रतिबद्धतेयम् व्यक्तास्ति। उपकुलपतिभिः विश्वविद्यालयानाम् प्राध्यापकान् कर्मचारिणः विद्यार्थिनश्च दलगत राजनीतितः पृथक्कृत्य अनुशासनम् प्राथमिकतायाम् संस्थाप्य रचनात्मकम् प्राज्ञिक्यम् च कार्यम् कर्तुम् कारयितुम् च प्रतिबद्धता व्यक्तास्ति। तदवसरे विश्वविद्यालयस्य सहकुलपतिश्च शिक्षामन्त्री सस्मित पोखरेल विश्वविद्यालयेषु प्राज्ञिक वातावरणस्य निर्माणाय व्यवस्थापकीय सुधारस्य च कृते मन्त्रालयेन आवश्यकम् सहजीकरणम् करिष्यते इति प्रतिबद्धताम् अभिव्यनक। देशस्य विभिन्नेषु स्थानेषु वृष्ट्या सहैव दुरापन्नेन भूस्खलनेन सप्त राजमार्गाः अवरुद्धाः वर्तन्ते। प्रहरी प्रधान कार्यालयस्य अनुसारेण बीपी राजमार्गस्य काभ्रेपलाञ्चोक सिन्धुली खुरकोट नेपाल थोक कटुञ्जे बेसी मार्गखण्डे सम्पूर्णानि यातायात साधनानि पीतानि वर्तन्ते। मेची राजमार्गः पूर्णरूपेण अवरुद्धोऽस्ति। एवमेव भूस्खलनेन सालझण्डी ढोरपाटन मार्गखण्ड अवरुद्धो वर्तते। एवमेव कालीगण्डकी तटीय मार्ग मध्य पर्वतीय राजमार्गश्च पूर्णतया अवरुद्धोऽस्ति इति प्रहरी प्रधान कार्यालयेन ज्ञापितम् वर्तते। अरणिको राजमार्गश्च अवरुद्धोऽस्ति प्रहरिणा ज्ञापितमस्ति। सर्वोच्च न्यायालयेन नैज संचार माध्यमेभ्य सर्वकारीय विज्ञापनानाम् अप्रदानस्य सर्वकारस्य परिपत्रम् न क्रियान्वेतुम् निरस्तीकर्तुम् च आदिष्टम् वर्तते। सर्वोच्च न्यायालयस्य न्यायाधीशद्वयस्य सारङ्गा सुवेदिनः नृपध्वज निर्वलाभिदस्य च संयुक्त न्यायपीठेन एवम् आदेशः प्रदत्तो वर्तते।